Next, we will have a small mini concert by Shruti Garikapati. And she will be accompanied on the mridangam by Srinath once again. She will be singing three songs, Sri Ramana Vibho, Ragam Arabi, Talam Adi, Vande Sada Padmanabham in Navarasa Kannada, Adi Talam, and Vishveshwara Darshanakara, Sindhu Bhairavi Rupakam.
Shri Ramana Vibho Kalayami Bhavantamaye Shri Ramana Vibho Kalayami Bhavantamaye Shruta Palana Lolupa Madhava Naga Bhiti Haranaga Bhogisuta Shri Ramana Vibho Kalayami Bhavantamaye Shruta Palana Lolupa Madhava Naga Bhiti Haranaga Bhogishaya Shri Ramana Vibho Kalayami Bhavantamaye Shruta Palana Lolupa Madhava Naga Bhiti Haranaga Bhogishaya Shri Ramana Vibho Kalayami Bhavantamaye Shruta Palana Lolupa Madhava Naga Bhiti Haranaga Bhogishaya Shri Ramana Vibho Kalayami Bhavantamaye पद्मनाभम् वन्दे सदा पद्मनाभम् पदवन्दारु समुदय मन्दारम् अमलम् वन्दे सदा पद्मनाभम् पदवन्तारु समुदय मन्दारम् अमलम् वन्दे सदा पद्मनाभम् कुन्दमदापः मोहनदन्तम् कुन्दमदापः मोहनदन्तम् कुन्दमदापः मोहनदन्तम् कुन्दमदापः मोहनदन्तम् निज सुन्दर तनुरुचि निन्दित मार निज सुन्दर तनुरुचि निन्दित मारम् पद्मनाभम् पदवन्तारु समुदय मन्दारम् अमलम् वन्दे सदा पद्मनाभम् भूरि कृपा कर कर विलसित पादम् भूरि कृपा कर विलसित पादम् भूरि कृपा कर विलसित पादम् भोगि वरेण्य वनजित रङ्गम् भूरि कृपा कर विलसित पादम् भोगि वरेण्य वनजित रङ्गम् नारद सुख मुनि हृदयाब्ज पृङ्गम् ृङ्गम् नारद सुख मुनि हृदयाब्ज भृङ्गम् नारद सुख मुनि हृदयाब्ज भृङ्गम् नवनीरद सर्वरुचि वन्दित अमलम् नवनीरद सर्वरुचि वन्दित अमलम् पद्मनाभम् पदवन्दारु समुदय मन्दारु अमलम् वन्दे सदा पद्मनाभम् जयमातङ्गतनये जयनीलोत्पल दीप्तिप्रिये जय सङ्ग जय संग ಸುಖ ಪ್ರಿಯ ಜಯ ಮಾತಂಗ ತನಯೇ ಜಯ ಮಾತಂಗ ತನಯೇ ವಿಶ್ವೇಶ್ವರ ದರ್ಶನ ಕರ ಚಲ ಮನ ತುಮ ಕಾಶಿ 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 ವಿಶ್ವೇಶ್ವರ ದರ್ಶನ ಕರ ಸ್ವರೂಪ ರಹಿಯೇ ಅವಿನಾಶ मन तुम काशी I thank Shrutilaya and Srinath uncle a lot for giving me this excellent opportunity. Thank you, uncle.
Thank you, sir. That was Shruti Garg party. This brings us to the end of the Music 2 session. We will take a short 5-minute break while we rearrange this stage, and this will be followed by the music concert by Srimati Bhavadharani. Please don't leave. There's a wonderful concert coming.